एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः अन्तर्गतया राज्य व्यवस्था सुशासन समित्या सर्वकारीय सेवा विधेयकम् विमृश्य निष्कर्षम् प्रापयितुम् एकादश सदस्यीय उपसमितिः संघटिता अस्ति। विमर्शनस्य क्रमे विधेयकस्य प्रतिप्रकरणम् सैद्धान्तिक रूपेण विवादस्य उत्पन्नस्य पश्चात् समितेः सदस्यानाम् परामर्शनस्य अनुसारेण विधेयकम् सहमते आधारेण निष्कर्षे प्रापयितुम् नेपाली कांग्रेस दलस्य सांसदस्य दिलेन्द्र प्रसाद बडु इत्यस्य संयोजकत्वे एकादश सदस्यीय उपसमितिः संघटिता अस्ति। उपसमित्यै सर्वकारीय विधेयके असहमतेषु विषयेषु सहमतिम् अन्विष्य मासाभ्यन्तरे प्रतिवेदनम् समितौ प्रस्तोतुम् कार्यादेशः निर्धारितो वर्तते। प्रधानमन्त्रिणः कुलपतेश्च केपी शर्मा ओलिनः अध्यक्षतायाम् उपविष्टेन ह्य पाटन स्वास्थ्य विज्ञान प्रतिष्ठानस्य सभायाः उपवेशेन वर्तमानार्थिक वर्षस्य योजनाः कार्यक्रमाः आयव्ययकम् च स्वीकृतानि वर्तन्ते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे उपविष्टेन सभायाः उपवेशेन प्रतिष्ठानस्य नवम्याः सभायाः उपवेशेन स्वीकृतानाम् बहुवर्षीय गुरूयोजनानाम् क्रियान्वयनाय नेपाल सर्वकारस्य स्वास्थ्य जनसंख्या मन्त्रालयस्य समक्षम् प्रस्तुत्यै अनुमतिः प्रदत्ता वर्तते। उपवेशेन कार्यकारी परिषदः परामर्शेन सभायाः सदस्यपदे प्राध्यापकः डाक्टर ब्रह्मदेव झा मनोनितो वर्तते। प्रतिष्ठाने कार्यरतानाम् पदाधिकारिणाम् शिक्षकाणाम् कर्मचारिणाम् च वेतनभरणस्य आन्तरस्रोतस प्रदानत्वेन प्रतिशतम् पञ्चभिः अंकैः वर्धनस्य प्रस्तावम् उपवेशेन अतिरिक्तम् अधीत्य विमृश्य च एव आनेतुम् निर्दिष्टमस्ति। राष्ट्रपतेः रामचन्द्र पौडेलः निगदति समेषाम् धर्माणाम् सम्प्रदायानाम् च लक्ष्यम् मानवसेवा एव वर्तते। कृष्ण प्रणामी धर्मशाला निर्माण समित्या धरानगरे निर्मितायाः धर्मशालायाः उद्घाटनस्य पश्चात् आयोजितम् समारोहम् पूर्वे द्युः सम्बोधयन् राष्ट्रपतिः पौडेलः अस्माकम् धर्मशास्त्रैः सेवायै अत्यधिक महत्वम् प्रधानता च प्रदत्ते स्तः इति अगदत्। अस्माकम् देशः पौरस्त्य ज्ञान परम्परायाः स्रोतस्थलम् अस्ति। अस्य ज्ञानस्य परम्परायाः सभ्यतायाश्च अभ्यन्तरे नैकासाम् संस्कृतीनाम् सभ्यतानाम् च एकता द्रष्टुम् शक्यते इति राष्ट्रपति पौडेलः प्रत्यपादयत्। अन्तर्राष्ट्रिय मातृभाषा दिवसः पूर्वेद्युः नेपालेन सहितेषु विश्वस्य विभिन्न राष्ट्रेषु भाषिक जागरणस्य सांस्कृतिक विविधतायाः बहुभाषावाद प्रवर्धनस्य च विविधान कार्यक्रमान् आयोज्य समायोजितो वर्तते। नवनवत्युत्तरैकोनविंशतितम ख्रैष्टाब्दस्य नोवेम्बर मासे बंगलादेशेन अन्तर्राष्ट्रिय मातृभाषा दिवसम् समायोजयितुम् विहितस्य प्रस्तावस्य संयुक्त राष्ट्रसंघीय शैक्षिक वैज्ञानिक सांस्कृतिक संघटनेन अनुमोदनस्य पश्चात् दिवसोऽयम् प्रतिवर्षम् समायोज्यमानोऽस्ति। अत्रान्तरे नेपालस्य विभिन्न भाषाणाम् वर्णानाम् निर्धारणाय ध्वनेः विश्लेषणार्थम् नेपाले प्रथमवारम् भाषा प्रयोगशालायाः स्थापना विहितास्ति। अन्तर्राष्ट्रिय मातृभाषा दिवसस्य अवसरम् उपलक्ष्य ह्य भाषायोगे एकम् समारोहम् आयोज्य स्थापितायाः भाषा प्रयोगशालायाः संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे उद्घाटनम् अकरोत्। तदवसरे मन्त्री पाण्डे भाषाणाम् अध्ययनाय अनुसन्धानाय च प्रयोगशालेयम् ऐतिहासिकी भविष्यतीति विश्वसितवान्। समारोहे भाषायोगस्य अध्यक्ष गोपाल ठाकुरः नेपालस्य मौलिक भाषाणाम् अध्ययनम् विधाय स्वयं मापदण्डाः निर्धारणीयाः इति धारणाम् व्यक्तवान्। नेकपा माओवादी केन्द्रेण जनतया सह विद्यमानस्य सम्बन्धस्य सुधाराय परश्वः फाल्गुनस्य द्वादशात् दिवसात् तराई मधेस जागरणाभियानम् सञ्चालयिष्यते। माओवादी केन्द्रेण ह्य पेरिस डाँडावर्तिनी केन्द्रीय कार्यालये पत्रकार सम्मेलनम् आयोज्य हुलाकी प्रमुख मार्गान् विशेषेण केन्द्रीकृत्य तराई मधेस जागरणाभियानम् सञ्चालयिष्यमाणमस्तीति ज्ञापितम् वर्तते। झापा जनपदात् प्रारप्स्यमाणम् जागरणाभियानम् तराई मधेसस्य समस्यायाम् केन्द्रितम् भविष्यति। आगामिनः चैत्रमासस्य अष्टमे दिवसे कञ्चनपुरम् प्राप्य अभियानम समाप्स्यति च माओवादी केन्द्रस्य उपाध्यक्ष अग्निप्रसाद सापकोटा अज्ञापयत। तराई मधेस केन्द्रितस्य प्रथम चरणस्य अभियानस्य समाप्ते पश्चात् द्वितीय चरणे मध्य पर्वतीय लोकमार्गम केन्द्रीकृत्य हिमालयीय पर्वतीय क्षेत्र योजकम या अभियानम संचालयिष्यते इति उपाध्यक्ष सापकोटा असूचयत। परराष्ट्र मन्त्री डाक्टर आरजू राणा देववा अद्य जेनेभा नगरम प्रतिष्ठते। संयुक्त राष्ट्र संघस्य मानवाधिकार परिषद अष्टापञ्चाशत्तमे उच्चस्तरीयोपवेशे सहभागितायै परराष्ट्र मन्त्री डाक्टर राणा अद्य तत्र प्रतिष्ठते इति परराष्ट्र मन्त्रालयेन विज्ञप्तिम् प्रकाश्य सूचितमस्ति। मन्त्रालयस्य अनुसारेण परिषद उपवेश फेब्रुवरी मासस्य चतुर्विंशात् दिवसात् षड्विंशम् दिवसम् यावत् सञ्चालिता। गत माघ मासे एव आराष्टम अष्टासप्तत्युत्तर शत चतुष्टयम् अग्निदाहस्य घटना दुरापन्ना सन्तीति प्रहरी प्रधान कार्यालयेन ज्ञापितम् वर्तते। अग्निदाहस्य एताभिः घटनाभिः द्वाविंशतिर् जना मृताः सप्ताशीतिर् जना आहताश्च सन्तीति नेपाल प्रहरीण प्रवक्ता प्रहरीणा एव महानिरीक्षकः दिनेश कुमार आचार्यः अज्ञापयत। एवमेव अग्निदाहस्य घटनातः सप्तदश परिवाराः विस्थापिताः सन्तीति प्रहरीणा ज्ञापितम् वर्तते। आन्दोलनरतस्य नेपाल चिकित्सक संघस्य स्वास्थ्य जनसंख्या मन्त्रालयस्य च मध्ये नवसूत्रीय सहमति सम्झौता वर्तते। यह मन्त्रालय सम्झौताया वार्ताया पश्चात् स्वास्थ्य जनसंख्या मन्त्रिण प्रदीप पौडेलस्य उपस्थितौ नवसूत्रीय सहमति सम्झौता अस्ति। सहमत्या सहैव संघस्य आह्वाने उद्घोष्टा आन्दोलनस्य सम्पूर्ण कार्यक्रमाः स्थगिताः वर्तन्ते। संघेन चिकित्सकानां सेवासौविध्यानां विषयेषु स्वस्य याचनाः न प्रपूरिताः इत्युक्त्वा आन्दोलनस्य प्रारम्भणस्य पश्चात् संघस्य स्वस्य स्वास्थ्य मन्त्रालयस्य च मध्ये चरणद्वयस्य वार्तायाः पश्चात् यः सहमतिः सम्भूता अस्ति। प्रधानमन्त्री केपी शर्मा ओली अभिव्यक्ति स्वतन्त्रतायाः अधिकारस्य अतिक्रमणस्य कार्यम् सर्वकारात् न भवति इति स्पष्टयति। ईश्वरलाल प्रतिष्ठानेन प्रकाशितस्य व्यवसायिनः समाजसेविनश्च राकेश काजी श्रेष्ठस्य जीवनेन सह आधृतस्य व्यक्तित्व योगदान इति नामकस्य पुस्तकस्य लोकार्पणम् विदधानः ह्य प्रधानमन्त्री ओली अभिव्यक्ति स्वतन्त्रताया हननकारी सामाजिक सञ्जाल विधेयकम् अस्ति इति उक्त्वा विहिते कुप्रचारे कापि सत्यता नास्ति इति अवोचत। प्रधानमन्त्री ओली सुशासनम् गभीर समावेश्य विषयो वर्तते इत्यतः शीघ्रतया सहजरूपेण च विधेयक निर्माणस्य कार्यस्य अग्रेवर्धनस्य च प्रक्रिया वर्तमान सर्वकारः अस्तीति असूचयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भासते दलेन परिचयस्य अधिकाराणां च विषयः कदापि न त्यक्तोऽस्ति। पोखरायां तमो राष्ट्रिय मुक्ति मोर्चा नेपालस्य राष्ट्रिय मेलाया पूर्वेद्युद्घाटनम् विदधान अध्यक्ष प्रचण्ड संविधानस्य निर्माणस्य समये परिचयस्य सन्दर्भे पृथक् मतम् उपस्थापितम् आसीत् इति अस्मरत। तदवसरे अध्यक्ष प्रचण्ड जनतया प्रत्यक्ष निर्वाचितेन कार्यकारी प्रमुखेण एव राजनीतिक स्थायित्वम् भ्रष्टाचारस्य अन्तम् सुशासनस्य स्थापनम् च कर्तुम् शक्यन्ते इति विचारम् व्यक्तवान्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा गदति नेपालस्य संविधानस्य देशस्य राज्य व्यवस्थां च प्रति दलानि ऐकबद्धानि सन्तीत्यतः अत्र विभाजन मानेतुं केनापि न शक्यते। विराटनगर विमानस्थले यः संचारकर्मीभिः भाषमाणः महामन्त्री थापा बहुषु विषयेषु दलेषु पृथक् विचारा सन्तोपि संविधानं व्यवस्थां च प्रति सर्वकारे सहभागीषु दलेषु वैस्थितेषु दलेषु च समाना धारणास्ति इति समस्पष्टयत्। इति समाचारः।